సర్వేభ్యో నమస్కారాః. అద్య సిద్ధాంతకౌముద్యాః కారక ప్రకరణే ద్వావింశః పాఠః. ఆగస్ట్ మాసస్య పంచమః దినాంకః. ఏనాక్షర సమాంనాయమధిగమ్య మహేశ్వర కృష్ణ వ్యాకరణం ప్రోక్తం తస్మై పాణినయే నమః. వాక్యకారం వరరుచిం భాష్యకారం పతంజలిం పాణినిం సూత్రకారం చ ప్రణతోస్సు మునిత్రయం. మునిత్రయం నమస్కృత్య తదుక్తి పరిభావ్య చ వైయాకరణ సిద్ధాంత కౌముదీయం విరచ్యతే. ఇన్ అష్టాధ్యాయి వి విల్ అగైన్ రివైజ్ ది ఫస్ట్ 40 సూత్రాస్ ఆఫ్ ద అనభీతాధికార విభక్తిధికార. సో ఫస్ట్ 40 వి ఆల్రెడీ లర్న్డ్. సో ఐ విల్ రీడ్ దిస్ వన్స్ టుడే, టుమారో వన్ ఆఫ్ యూ క్యాన్ రీడ్ ఇట్ అవుట్ అండ్ దెన్ వి విల్ లర్న్ ద రిమైనింగ్ 32 ఆర్ 33 సూత్రాస్ ఆఫ్ ద పాద. అనభిహితే కర్మణి ద్వితీయా తృతీయా చ హోశ్చందసి అంతరాంతరేణ యుక్తే కాలాధ్వనోరత్యంత సంయోగే అపవర్గే తృతీయా సప్తమీ పంచమ్యౌ కారక మధ్యే కర్మ ప్రవచనీయ యుక్తే ద్వితీయా యస్మాదధికం యస్య చ ఈశ్వరవచనం తత్ర సప్తమీ పంచమ్యపాం పరిధిః ప్రతినిధి ప్రతిదానే చ యస్మాత్ ప్రత్యర్థకర్మణి ద్వితీయా చతుర్థ్యౌ చేష్టాయామనధ్వనే చతుర్థీ సంప్రదానే క్రియార్థోపపదస్య చ కర్మణి స్థానినః తుమర్థాచ్చ భావవచనాత్ నమస్తుస్తి స్వాహా స్వధాలం వషడ్యోగాచ్చ మన్యకర్మణ్యనాదరే విభాషా ప్రాణిషు కర్తృకరణయో తృతీయా సహయుక్తే ప్రధానే యేనాంగవికారః ఇత్థంభూతలక్షణే సంయోన్యతస్యాం కర్మణి హేతౌ అకర్తవ్యణే పంచమీ విభాషాగుణే స్త్రియాం షష్ఠీ హేతు ప్రయోగే సర్వనామ్న తృతీయా చ అపాదానే పంచమీ అన్యారాదితరర్థే దిక్షబ్దాంచూతర పద ఆజాహి యుక్తే షష్ఠితసర్థ ప్రత్యయేన ఏనపాద్వితీయా పృథగ్ వినా నానాభిస్తృతీయాన్యతరస్యాం కరణే చ స్తోకాల్పకృచ్ఛ కతిపయస్యా సత్వవచనస్య దూరాంతికార్థే షష్ఠ్యన్యతరస్యాం దూరాంతికార్థేభ్యో ద్వితీయా చ సప్తమ్యధికరణే చ యస్య చ భావేన భావలక్షణం షష్ఠీ చానాదరే స్వామీశ్వరాధిపతిదాయాద సాక్షి ప్రతిభూ ప్రసూతైశ్చ ఆయుక్త కుశలాభ్యాం చ సేవాయాం యతశ్చ నిర్ధారణం. కారక ప్రకరణే కారక చతుర్థీ అధీత. బహూని సూత్రాన్ని సంతి కరణకారకే అల్పాన్యవ సూత్రాన్ని కర్తు కరణస్య చ ఏకైకం సూత్రం విభక్తిదాయకం ఏకం సూత్రం తావదేవ. కర్మణి సూత్రాన్ని సంతి విషయ అపి బహు అస్తి. చతుర్థ్యామపి బహూని సూత్రాన్ని సంతి సంప్రదాన కారక సంజ్ఞా విధాయకాన్ని. కర్మణా యమభిప్రైతి ససంప్రదానం ఇది ముఖ్యం సంప్రదానం. దానస్య కర్మణా యమ్ అభిప్రైతి సహ సంప్రదాన సంజ్ఞ స్యాత్. దదాతి ఇత్యస్తి కిం దదాతి గాం దదాతి అతః గౌః కర్మ. కముద్దిశ్య గాం దదాతి విప్రముద్దిశ్య దాతి విప్రాయ గాం దాతి విప్రస్య సంప్రదాన సంజ్ఞా తత్ప్రయుక్తత్వాత్ చతుర్థీ సంప్రదానే ఇతి చతుర్థీ విభక్తి. క్రియయా యమ్ అభిప్రైతి సోపి సంప్రదానం ఇతి వార్తికకారః. అర్థాత్ న కేవలం కర్మణ క్రియా విశిష్య అకర్మక క్రియా ఎత్ర అస్తి తస్య ఉద్దేశ్యోపి సంప్రదాన సంజ్ఞం భవతి. యథా యుద్ధాయ సన్నహ్యతే prepares himself for war, sannahyate, sannahanam karoti, he wears his armor and everything and prepares for war. Tatra yuddham sannahyate iti kriya, tasya abhiprayaha kimuddishya sannahaha kriyate yuddham uddishya, ataha kriyayaha uddeshyam api sampradana samyam bhavati iti వార్తికకారస్య మతం. భాష్యకార మతే వార్తికం నాపేక్షితం సూత్రేణైవ సిద్ధ్యతి క్రియాపి విశిష్టం కర్మ ఇది వదతి తథాపి తాదృశ ప్రయోగాస్తు భాష్యకార సమ్మతాః అపి. अतः अकर्मकक्रियायोगे क्रियायाः उद्देश्यं सम्प्रदानसमयं भवति, सकर्मकक्रियायोगे तु कर्मणः उद्देश्यं। नाशिकारमते तदप्यस्ति, न केवलं दानस्य कर्मण अपि तु यत्किञ्चित् या काचित् क्रिया तत्र कर्मण यम् अभिप्रैति स सम्प्रदानम् इत्येव भाष्यकारमते। ततः विशिष्टधातूनां प्रयोगे सम्प्रदानसमया विधीयते। रुच्यर्थानां प्रीयमाणः, रुच्यर्थानां प्रयोगे अन्यकर्तृकः अभिलाषः रुचिः इति रुचेः लक्षणमुक्तं। तदर्थानां धातूनां प्रयोगे प्रीयमाणः, प्रीतेः आश्रयः, प्रीतिम् उत्पादयति किञ्चिद्वस्तु, तत्र प्रीतिः यस्मिन् उत्पाद्यते सः प्रीयमाणः, तस्य सम्प्रदानसंज्ञा भवति। बालकाय मोदकः रोचते इत्युक्ते मोदकेन बालके प्रीतिः उत्पादिता, प्रीत्याश्रयः बालकः, तस्य सम्प्रदानसंज्ञा भवति। श्लाघा नु स्था शपां गीच्यमानः, एतेषां चतुर्णां धातूनां प्रयोगे गीप्स्यमानः, विशिष्टं किञ्चित् यत्र बोधयितुम् इष्यते तत्र यः बोधयितुम् इष्टः, यं प्रति बोधयितुम् इच्छा वर्तते सः सम्प्रदानसंज्ञः भवति। कृष्णाय श्लाघते इत्युक्ते श्लाघनं नाम आत्मविकर्थनं, प्रेस् वन् सेल्फ्। किमर्थम् इत्युक्ते टु कन्विन्स् कृष्ण आफ् हर् ओन्, गोपी कृष्णाय श्लाघते इत्युक्ते टु कन्विन्स् कृष्ण आफ् हर् what of her qualities and to make her make him interested in her. So tatra neepsyamanah krishnah, atah krishnasya sampradana samya chaturthi vibhaktishta. Dharer uttamarnah, dharayati asti uttamarnah arinam, yatra diyate tatra yah arinam pradadati saha uttamarnah, yasmai arinam diyate saha adhamarnah. उत्तमऋणस्य चतुर्थी भवति सम्प्रदानसंज्ञा, तत्र युक्ता चतुर्थी विभक्तिः। भक्तेभ्यः मोक्षं धारयति, भक्ताः किञ्चित् निवेदनरूपेण ऋणं यच्छन्ति, तत् हरिः प्रत्यर्पयति, मोक्षरूपेण प्रत्यर्पयति इति पौराणिकाः। अतः मोक्षं धारयति, हि ओस् मोक्ष तु भक्त, भक्तैः पूर्वं ऋणं प्रदत्तम्, अतः ते उत्तमऋणाः, तत्र सम्प्रदानसंज्ञा भवति चतुर्थी विभक्तिश्च। स्पृहेरीप्सितः, स्पृहधातोः प्रयोगे ईप्सितः इच्छाविषयः सम्प्रदानसंज्ञः भवति। यथा पुष्पेभ्यः स्पृहयति, यदि ईप्सिततमत्वं प्रकर्षेण इच्छा वर्तते तर्हि कर्म पुष्पाणि स्पृहयति इत्यपि साधु, यदि सम्बन्धमात्रविवक्षा पुष्पसम्बन्धि स्पृहा तदा तु षष्ठीविभक्तिरपि साधु इति दीक्षितानां मतम्। इस् एवरीबडि एबल् टु सी मै स्क्रीन्? Vasuji says the screen is blank. I have shared the screen, so okay. Vasuji also said he can see it now. Okay. Krudhadruhesya suyarthanam yam prati kopah. Krudhadruha irshya asuya. इति चतुर्णां धातूनां प्रयोगे यं प्रति कोपः, एते सर्वेपि कोपमूलकाः इति उच्यते। क्रोधः अमर्षः अर्थात् प्ररूढकोपः, द्रोहः नाम अपकारः, ईर्ष्या असहनम्, असूया गुणेषु दोषारोपणम्, एते सर्वेपि कोपमूलकाः, अतः यं प्रति कोपः सः सम्प्रदानसंज्ञो भवति। तत्र चतुर्थी विभक्तिः, कृष्णाय द्रुह्यति, रामाय क्रुध्यति इत्यादि। क्रुधद्रुहोरुपसृष्टयोः कर्म, यत्र क्रुधद्रुह एतयोः धातोः etau dhatu upasarga sahitau. So when they are preceded by an upasarga, karma samnyam bhavati, sampradana samnyam badhitva. Ramam abhikrudhyati, thava abhidruhyati. So this is not actually a sampradana vidhayaka sutra, it is a karma samnya vidhayaka sutra. But it is in the series and it is an exception to sampradana, so we study it here. राधीक्ष्यो यस्य विप्रश्नः राध धातुः ईक्ष्य धातुः शुभाशुभ पर्यालोचनम् इत्यर्थे उपयुक्तौ. सो व्हेन दीस धातुस आर यूज्ड इन द सेंस ऑफ लुकिंग एट द हॉरोस्कोप फॉर फाइंडिंग आउट द पॉजिटिव्स एंड नेगेटिव्स. सो तदा यदा अनयोर्धातोः प्रयोगः तत्र विप्रश्नः यस्य विषये प्रश्नः क्रियते सः संप्रदानं भवति. कृष्णाय राध्यति इत्युक्ते कृष्णस्य शुभाशुभं पर्यालोचयति इत्यर्थः. प्रत्याङ्भ्यां शुभः पूर्वस्य कर्ता. प्रति आङ् इत्युपसर्गात् उपसर्गद्वयात् पदस्य श्रु धातोः प्रतिशृणोति प्रतिशृणोति अथवा आशृणोति इत्येतेषां प्रयोगे पूर्वस्य कर्ता. सो प्रतिशृणोति आशृणोति इज यूज्ड फॉर प्रॉमिस और अश्योरेंस गिवन इन रेस्पॉन्स टू अ रिक्वेस्ट. प्रार्थना श्रुत्वा ततः अभ्युपगमः अथवा अंगीकारः यदा यत्र प्रदर्श्यते तत्र अनयोः प्रयोगः प्रतिशृणोति अथवा आशृणोति इति. तत्र पूर्वस्य कर्ता यः याचते अथवा प्रार्थनां करोति तस्य संप्रदान समयः भवति. तस्मै प्रतिशृणोति अथवा तस्मै आशृणोति इति. सो हि प्रामिसेस हिम और हि अश्योर्स हिम और हर. यदा विप्रः आगत्य गां देहि इति पृच्छति राजा अस्तु इति अंगीकरोति तदा राजा विप्राय गां प्रतिशृणोति. महर्षयः आगच्छन्ति रामं राक्षसनिधनं प्रार्थयन्ते रामः अस्तु इति अङ्गीकरोति रामः महर्षिभ्यः राक्षसमर्दनम् आशृणोति. अनुप्रतिगृणश्च दट् वन् प्रतिशृणोति आशृणोति इस् यूस्ड् इन् क्वैट् अ फ्यू कान्टेक्स्ट् वेरस् दिस् वन् इस् मोस्ट्ली इन् द वेदस्. अनुप्रतिगृण अनुगृणाति आर् प्रतिगृणाति. सो गृणाति इत्यत्र अत्र वेदमन्त्रं वाचयति इत्यर्थः. यदा कश्चित् होता उच्चारयति तम् अन्यः प्रोत्साहयति अध्वर्युः तदा अनुगृणाति प्रतिगृणाति इति प्रयोगः. सो यस्य उच्चारणविषये प्रशंसा क्रियते आदौ उच्चारणक्रिया अस्ति ततः प्रोत्साहनक्रिया. पूर्वस्य कर्ता उच्चारणक्रियायाः यः कर्ता होता तस्य सम्प्रदानसंज्ञा होत्रे अनुगृणाति इत्यर्थः. परिक्रयणे सम्प्रदानम् अन्यतरस्याम् परिक्रयणम् नियतकालम् भूत्या स्वीकारः. सो फार् अ पर्टिक्युलर् टैम् यु हयर् सम्बडी दट् इस् परिक्रयण. सो तत्र करणस्य सम्प्रदानसंज्ञा भवति. सो द करण आफ् सच् अ थिङ्ग् दट् इस् द परिक्रयणव्यापार that which is the instrument, that is the amount of money or price of hiring. So tasya sampradana samya vikalpena bhavati antaha shataya parikritaha athava shatena parikritaha. Sampradana samyayam shataya iti chaturthi shruyate tadabhave karana samyayam shatena iti tritiya vibhaktihi shruyate. So that is about Karaka Chaturthi, right? So all sutras where we have Sampradana Karaka and Chaturthi Vibhakti through that Sampradana, that is Chaturthi Sampradane. Agre tu Upavada Chaturthi. Yatra Vishishta Padanam Yoge Chaturthi Vibhakti Vidhiyate. Tatra Prathama Masti Vastikam. Chaturthi Sampradane iti sutre drishtam Vastikam. Tadarthye Chaturthi Vachyam. So one of the most famous usages of Chaturthi Vibhakti is Tadarthya. Okay. So Tadarthya Chaturthi Vachya. Okay. Vachyane. चतुर्थी संप्रदाने इति सूत्रभाष्ये पठितमेतत्। तस्मै इदं तदर्थम् अर्थेन नित्यसमासः तदर्थस्य भावः तादर्थ्यम् ब्राह्मणादित्वात् श्यै तेन च उपकार्य उपकारकभावसम्बन्धो विवक्षितः। So he derives the word tadarthya. Tadarthya chaduthi tite, tadarthyam nama kim. Tasmai idam tadartham. So this is a samasa, there is a sutra which says arthena, there is a artika actually, nitya samasaha. It is a sutra actually, chaduthi tadarthartham alihita sukharakshatehi. So this is a chaduthi samasa, chaduthi tatpurusha. So brahmanaya idam brahmanartham. So it can be in all three lingas actually. Brahmanartha supaha, brahmanartha evaguhu, brahmanartham phalam. So arthena nitya samasaha, it is a nitya samasa. So you don't hear it in the vigraha, but there is a samasa. We'll see this in the samasa prakarana. So he says tasmai idam tadartham arthena nitya samasaha tadarthasya bhavaha tadarthyam. So, tadarthasya bhavaha ityate tadhita pratyaha. Tadartha shabdate tadhitaha shyai pratyaha. Brahmanaditvan shyai pratyaha vihidhiyate. So, you have tadarthya. So, what is bhava? So, on the tadhita, if you have a bhava, there is a sambandha which is being always indicated. He says, upakarya upakaraka bhava sambandhaha vivakshitaha. So, the sambandha, it indicates the sambandha between upakarya and upakaraka. Right? So that which is upakaraka, helpful for, instrumental for doing something, and upakarya is that which is being changed or which is being helped by the upakaraka, is upakarya. Tatra upakarya deva chaturthi. So there is a sambandha. This sambandha will always have two things. Sambandha sarvada dvinishtha. You have to have a sambandha, there should be two things which are being related, right? If you have a samyoga, that is a attachment, there should be two things which are being attached. So, any sambandha you take, sambandha sarvana dvinishtha. Atra yadi upakarya upakaraka bhava sambandha iti uchyate, tada ubhayohu vastunohu bhavati. Tatra kasya chaturthi iti prashne, upakarya deva chaturthi iti uchyate. So, the upakarya, the one. So, upakaraka is the one which is instrumental in helping or changing something. And upakarya is the one which is being assisted by the upakaraka. So, he says, upakarya deva chaturthi. Kimartham bhashye yupaya daru kundalaya hiranyam iti udahratatvad. So, bhashya daharanani kani asya vartika se tikte yupaya daru. Daru nama kashtavisheshaha. Yupaya. Yupaha nama yagastambhaha. Yupa is the pillar in a sacrifice which is meant for tying the sacrificial animal. Pashubandhanartham stambhaha vidyate saha yupaha. Tadartham daru. Arthat kashtavisheshaha. So it is prescribed that the yupa should be constructed out of a particular kind of wood. So, yupaya daru. Atra daru yupaha. It is, daru is the wood and yupa is the stambha. So, daru upakarakam. Daru is the prakriti for creating the yupa. So, daru is the upakaraka and yupa is the upakarya. That which is being made from wood is the yupa. So, upakarya deva chaturthi. Kundalaya hiranyam. Kundalam. Karanabharanam. Tadartham hiranyam. Nama suvaranam. So, gold for making an ear ornament. So, gold is the upakaraka and kundala is the upakarya. Upakarya deva chaturthi. Bhashye udaharatatvatu upakarya deva chaturthi. Iti abhipretya udaharati muktaye iti. Kim udaharanam dattam dikshitehi. Muktaye harim bhajati. Okay. So, muktaye harim bhajati. He... worships Hari for mukti or salvation. Right? So, this is the main case chaturthi where generally we use for in English. So, for mukti. Muktihi muktyartham hari bhajanam ityarthah. So, the bhajana of Hari is for mukti. Okay. So because there is Tadarthya, we say there is Chaturthi Vibhakti here. You can see that there is no Sampradana. He has chosen an example where there cannot be a Sampradana because this is not Karmana Yam Abhiprayati. So Hari is not, Mukti is not the Uddeshya of Hari. Okay. So Bhajana is the Uddeshya. I mean, Mukti is the Uddeshya of Bhajana, right? This is not Karmana Yam Abhiprayati. So there is no Sampradana Samya. So Tadarthya Chaturthi Bhavati. Okay. Muktaye Harim Bhajati Iti. So Muktaye Iti. Muktyartham ityarthaha upakaryatvancha bahuvidham janyatvadi. So now this upakarya upakaraka bhava is of many kinds. So there is direct karya karana bhava, where there is cause effect relationship. There is janya janaka bhava, that is where something is created out of, born out of something else, and so on. Upakaryatvancha bahuvidham janyatvadi yatha muktaye harim bhajati iti muktihi janya iti gamyate. So hari bhajana and mukti. Bhajana and Mukti are the two things which are being related by the Sambandha. Mukti is Janya out of Bhajana. Bhajana gives rise to Mukti. Okay. So Janya, Janaka Bhava, Sambandha. Upakarya Upakaraka is a general kind of Sambandha. Within this, there are several specific kinds which can be there. So here, Bhajana is Upakaraka and Mukti is Upakarya. Okay. So Bhajana is, Bhajanam Muktyartham Upakaroti. Right. Bhajana will help in obtaining mukti. So, upakarya upakara bhava sambandha astyeva saha bahuvidha bhavitum arhati janyatvadi yatha muktaye harim bhajati iti muktihi janya iti gamyate prapyatvam va. So, there can also be prapya prapyatvam, that is brahmanaya dadhi. So, curd for the brahmin is this thing. So, here brahmanasya upakaryatvam gamyate. Prapnoti. So here Brahmana is the prapya and Dadhi is the prapaka. So Dadhi is reaching the Brahmin. Okay. Satra prapya prapaka bhava sambandha vivakshate. So upakari upakaraka bhava as a general thing is always there. Dadhi is the upakaraka and Brahmana is the upakarya. So yatha mukte prapyatvam va brahmanaya dadhi iti brahmanasya upakaryatvam gamyate ityadi. Nacha evamapi anenaiva siddhe Chaturthi Sampradane iti sutram, Sampradana Samnya Vidhanancha Vyartham iti vachyam, Haraye Rochate Bhaktihi ityadau, Ruchyarthanam Priyamanaha ityadyartham, Tadavashyakatvat iti bhashye spashtam. So now there is a question. We see that in this case, Mukte Harim Bhajati ityatra Sampradana Samnya Nasti, ataha etadvartikam avashyakameva iti avagatam. Into that sutra avashyakam va, karmana yama vipraiti sa sampradanam. Because wherever we have that, say, vipraya gam dadati. So viprartha gauhu. The gau is, the cow is intended for the vipra. Okay. Tatra api tadarthyam asti. Yatra yatra karmana yama vipraiti sa sampradanam, ityanena sampradana samyaviti. Tatra sarvatra tadarthyam api drishyate. Tadarthya is always there. Because it is for something. You are saying the karma is for somebody. That person gets some pranana. So he says, there is tadarthe eva chaturthi siddhyati kimartham sampradana samya vidhanam iti prashna. Nacha evam api anenaiva siddhe chaturthi sampradane iti sutram sampradana samya vidhanancha vyartham iti vachyam. Haraye rochate bhaktihi ityadau ruchyarthanam priyamanaha ityadyartham tadavashyakatvat iti bhashye spashtam. So the bhashyakara says, sampradana samya by karmana yamahipraiti may not be essential, but for the rest where you have ruchyarthanam priyamanaha, tatra sarvatra tadarthyam na drishyate, ataha tadartham sampradana samya avashyaki iti bhashyakaraha sakshyad vachanehi kathyati. So that is directly bhashyakara's answer. But there is also, if you look at the commentaries, he says, that is not the only thing. The Sampradana Samnya is also required for a direct relation with the Kriya. Kriya Janakatva Vivakshayam. Tadartha Vachanartham Sampradana Samnya Avashyaki. So, in this case, Tadarthya Chaturthi, there need not be a Kriya, direct association with the Kriya. Right? Brahmanaya Dadhi, Dravyayoreva Sambandha Hasti, Natu Kriyayo, Kriyaya Sambandha. So, there is a where there is Sampradana Samya, there is a direct association with the Kriya and there is a karakatva, that is kriyajanakatva. So, tat sadrisha shabdabodhartham. So, there is difference in how there is shabdabodha between, say, when there is chaturthi, vaitarathya chaturthi, or sampradana chaturthi. So, for that, we need the sampradana samya sutra also. So, that is one vartika. Anyanyapi vartikani santi, kripi sampadyamane cha, iti agrimam vartikam. Klipi sampadyamane cha iti vyakhyane, klipi iti saptami, sampattihi nama vikaratmana utpattihi, parinamaha iti avadde. So, klipu is the dhatu, kalpate iti dhatu. Sampadyamane, what is sampadyamana? What is the artha of the dhatu? Parinama. Parinama is something is being converted or changed into something else. Okay, so that is parinama or sampadyamana. So, klupidhatav prayujyamane sati, sampadyamane arthe. So, there are two stages. So, there is an initial stage and a final stage. I mean, when a thing is being converted from, say, A to B. So, that which is being, that which is created newly, that which appears anew is sampadyamana. So, tasya, sampadyamane arthe vartamanat, chaturthi vachya, ityarthaha. Klupihatav prayujyamane sati, sampadyamane arthe vartamanat, chaturthi vachya, ityarthaha. Kimudaharanam, bhaktihi jnanaya kalpate, sampadyate, jayate, ityadi. So, it is not just the klupadhatu. There are others, sampadyate, jayate, all of which mean the same. So, bhaktihi jnanaya kalpate. Bhakti, devotion, will result in knowledge. That is, will lead to knowledge. So, the vivaksha here is, devotion itself will be converted to knowledge. So, initially, it might be just devotion to a particular deity or something. But as the devotion gets matured, it itself gets converted into knowledge. So, that is the vivaksha. So, bhakti hi jnanaya kalpate. So, sampadyamanam kyu? Jnanam. So, that is the one which is arising out of bhakti. Ataha jnanasya chaturthi bhakti hi bhavati. Bhakti hi jnanaya kalpate. Evameva bhakti hi jnanaya sampadyate. Bhakti hi jnanaya jayate ityadi. So, bhakti riti jnanatmana parinamate ityarthaha. So, it gets converted into jnana. Klupi iti arthagrahanam iti abhipretya udaharati sampadyate jayate ityaditi. So, he says, klupi is not just the dhatu. Klupi iti kevalam sayeva dhatu huna, kindo arthagrahanam, tadarthakaha ye dhatavaha, sesham sarvesham vishaye iyam chaturthi bhavati. Ataha sampadyate jayate ityadi. Adina parinamate ityadi sangrahaha. So, ityadi ityate anyake dhatavaha ityate parinamate ityate asti. Bhakti hi jnanaya parinamate ityate sadhu. Parinamatva prakaraka bodhartham idam vachanam. Anyatha tadarthya chaturtheva siddham iti ahuhu. So, why this sutra? Tadarthyeva chaturthi jnanartham jnanartha bhakti hi iti siddhati kila iti prashnaha. Can we not do it by tadartha? Because we said upakari upakaraka bhava, atrapi asti, bhakti hi upakarika, jnanam upakaryam. So, atrapi tenaiva siddhati ityukte, parinamatva prakaraka bodhartham. Again, there is a difference at the shabda bodha level. Okay? So, in the shabda bodha, where we use this parinamatva as a prakara, that is, as a visheshana. So, for parinama, the intention that the bhakti itself is being converted to jnana. To, for that special vivaksha, that is a very important vivaksha in this sentence. It is not that bhakti is different and jnana is different. Bhakti is itself being converted to jnana. So, to convey that sense of parinama, parinamatva prakaraka bodhartham idam vachanam. So, we need this. Agrimam sutramasti, agrimam vartikamasti, utpatena jnapitecha. So, all these vartikas are included in the same, chaturthi sampradane. So, there is a sutra and there are a few vartikas. Utpatena jnapitecha. So, utpataha, nama, ashubhasuchakaha, akasmikaha, bhutavikaraha, utpataha. So, what is utpata? It is an akasmikaha, bhutavikaraha. Panchabhuteshu kashtana vikaraha. There is some vikara, which is seen in one of the panchabhutas. Akasmikaha, suddenly. Ashubha suchakaha, and it indicates or portends some evil. Okay, so there are many such things. If you look at the example, it will be clear. So, vataya kapila vidyat. He says vidyat. Lightning is generally white in color. So, kapila vidyat. If it there is a kapila. Kapila is something like a saffron or a brown color. Is kapila. Okay. So, if the lightning is of that color, kapila vidyat, vataya. So, there will be a vata storm. So, it indicates a storm. So, ashubha suchakaha, bhutavikaraha. So, there is a difference, I mean, there is a deviation from how it should usually be, and it indicates something wrong. So, this is probably scientific. There is some change in the atmosphere which gives that color to lightning and which indicates that there is a storm brewing. Right. So, vataya kapila vidyat. So, here, utpatena jnapite. Saha utpataha. Utpataha kaha. Vidyut, kapila vidyut, atra utpata shabdena grihyate. Jnapite, tena kim jnapyate? What does it indicate? It indicates vata. So, utpatena yad jnapyate, tasmata chaturthi vibhakti bhavati. So, ashubha suchakaha, akasmikaha, bhutavikaraha, utpataha, tena suchite arthe vidyamanat, chaturthi vachya, ityarthaha. So, kaha arthaha, mahamatasya suchika, it indicates a strong wind or a storm. Hita yoge cha, ite gavam sutram, very clear, hita shabdasya yoge chaturthi bhavati, brahmanaya hitam. So, this is, we indicated from the sutra itself, in the samasa vidhayaka sutra, there are many cases where there is a parallel between say vibhakti and samasa vidhayaka sutra. So, he says chaturthi tadarthartha bali hita, right. So, Panini includes the word hita in that sutra, so which indicates that there will be chaturthi. He says chaturthyanta will combine with hita. So first there should be a chaturthi with hita. So Vartikakara brings it with the Vartika. Hashikara thinks since the Sutrakara makes that nirdesha, he indicates that there is chaturthi in association with hita. So Brahmanaya hitam. Sutram. Brahmanaya, Brahmanasya sukhakrati. That which pleases is good for a Brahmin. So, those are the vastikas which give chaturthi vibhakti, not related to a sampradana, in association with particular meanings or particular words. So, next we have a sutra, kriyarthopapadasya karmani sthaninaha. So, chaturthi sampradane ityataha, chaturthi iti anuvartate. Kriyartha kriya upapadam yasya tasya sthaninaha aprayujyamanasya tumunaha karmani chaturthi syat. So this is a sutra which if you to understand the padapadartha it is pay attention. So kriyartha upapadasya cha. So kriyartha iti vyakhyane kriya arthaha prayojanam yasya sa kriyartha. Kriyate vishanam, visheshyam adhyaharyam. So, kriyartha kriya. So, there is one kriya which is being done for another kriya. So, very popular, I mean, it's actually a popular usage, though the words seem slightly difficult to understand. Kriyartha kriya. Where do you see it? Generally for patitum shalam gachati. He goes to school to read. So, tatra patanakriya ekasti, gamanakriya ekasti. Patanartha gamanakriya. Right. So, wherever we have tumun, that is the case. Kriyartha kriya. So, there is one action which is, the purpose of which is another action. So, there is an action 2 and action 1. So, the purpose of action 1 is action 2. So, patitum gachati ityukte, patanakriya gamanakriya ityasti, patanakriyartha gamanakriya. Gamanakriya is for patanakriya. So, that is kriyartha kriya. Kriya arthaha nama prayojanam. So, the prayojana, the purpose of first kriya is the second one. Prayojanam yasya sa kriyartha. Kriya iti visheshyam adhyaharyam. Kriya phalaka kriya vachakam. So, one kriya which is, whose purpose is another kriya. Kriya phalaka kriya vachakam iti yavat. Kriyartha kriya upapadam yasya iti vigraha. So, such a kriya, that is, पठितुं गच्छति इत्युक्ते क्रियार्थ क्रिया सा गमनक्रिया. सो तस्याः उपपदं द वन् विच् इस् असोसियेटेड् वित् दट् क्रिया इस् द सेकेण्ड् क्रिया, पठनक्रिया. सो तुमुनः विशेषणम् एषत्. सो पठितुं गच्छति, सी दट् क्रिया, देर् आर् टु क्रियास्, पठनक्रिया, पठनम् इत्यस्ति, गमनम् इत्यस्ति, पठनार्था गमनक्रिया. सो दट् इस् द क्रियार्था क्रिया. तस्य उपपदं, सो द वन् विच् इस् असोसियेटेड् वित् इस् द क्रिया विच् इस् द पर्पस् विच् इस् अगेन् पठनम्. ओके, सो आन् दट् वील् हेव् तुमुन्. सो तुमुनः विशेषणम् एतत्. सो द क्रिया आन् विच् देर् इस् तुमुन्, तुमुनः विशेषणम् एतत्. उपोच्चारितं पदम् उपपदम्. ओके, सो दट् विच् इस् असो अटर्ड् अलाङ्ग् वित् इट्. ओके, पठनार्थं गमनं, गमनक्रिया पठनार्थम् इत्यस्ति, अतः उपपदं, गमनस्य उपपदं भवति पठनम्. स्थानिनः इत्यपि तद्विशेषणं. सो तुमुन् फस्ट् थिङ्ग् इट् शुड् बी द उपपद आफ् अ क्रियार्थ क्रिया इस् द फस्ट् थिङ्ग् एण्ड् देन् ही सेज़् इट् शुड् बी अ स्थानी. स्थानी एण्ड् आदेश. स्थानी इस् द वन् विच् वास् ओरिजिनली देर् विच् इण्डिकेट् दट् इट् इस् नाट् देर् नौ. स्थानी इत्युक्ते पूर्वं तत् स्थाने आसीत्, इदानीं नास्ति इति गम्यते. इदानीम् अस्ति चेत् स्थानी इति नोच्यते. सो स्थानिनः इत्यस्य अर्थात् इदानीं तुमुन् नास्ति, पूर्वम् आसीत्. स्थानिनः इत्यपि विशेषणं. स्थानं प्रसक्तिः अस्य अस्ति इति स्थानी. सो देर् वास् द प्रसक्ति आफ् इट् बीङ्ग् यूस्ड् बट् इट् इस् नाट् देर्. तस्य इति विग्रहः अप्रयुज्यमानस्य इति यावत्. दट् इस् वै हि सेज् अप्रयुज्यमानस्य तुमुनः. Right? So, tumun, it is not being heard now, but it was there. Kriyartha, kriya, upapadam, yasya. So, it was there, which was associated with another kriya, whose purpose was this. Okay? So, now, this tumunanta is not being heard. Aprayujyamanasya tumunaha. Karmani. So, the karma of that tumun will have chaturthi. So, sthanam prasaktirasya sthiti sthani, tasya iti vigraha. अप्रयुज्यमानस्य इति यावत्. तादृशस्य तुमुन्नन्तस्य कर्मणि चतुर्थी इति फलितम्. तुमुन्नुलौ क्रियायां क्रियार्थायाम् इति तुमुन्विधिमहिम्ना क्रियाफलकम् उपपदं क्रियावाच्येव लभ्यते. सो हौ डु वि नो दट् क्रियार्था क्रिया? इट् जस्ट् सेस् क्रियार्थ उपपदस्य. ओके, नौ हौ डु वि नो दट् इट् इस् अ क्रियार्था क्रिया उपपदम्? So the second kriya is not there in the sutra, but it is implied, because tumun is always given, tumunulau kriyayam kriyarthayam. So tumun is always added to a kriya whose purpose is another kriya. Iti tumun vidhi mahimna, because of that sutra, kriya phalakam upaparam kriya machyeva labhyate. So that's why he says kriyartha kriya iti. स्थानिनः इत्यस्य व्याख्यानम् अप्रयुज्यमानस्य इति. फलेभ्यो याति इति उदाहरणम्. हि गोस् फार् फ्रूट्स्. किमस्ति, फलानि आहर्तुं याति इत्यर्थः. हि गोस् टु ब्रिङ्ग् फ्रूट्स् इत्येव अर्थः. दट् इस् द अर्थ विच् इस् बीङ्ग् कन्वेड्. ओके, सो देर् आर् टु क्रियास् हियर्. वन् इस् यानक्रिया गोयिङ्ग्, द अदर् इस् ब्रिङ्गिङ्ग् द फ्रूट्स्. आहर्तुम् इस् टु ब्रिङ्ग्. सो फलानि आहर्तुं याति इत्यस्ति. सो अत्र क्रियार्था क्रिया का? सो देर् इस् वन् क्रिया विच् इस् आहरणक्रिया, विच् इस् अ प्रधानक्रिया. सो पर्पस् आफ् गोयिङ्ग् इस् टु ब्रिङ्ग् द फ्रूट्स्. सो आहरणक्रिया अस्ति. आहरणक्रियार्थ यानक्रिया, रैट्? सो क्रियार्था क्रिया, आहरणक्रियार्थ यानक्रिया. तद् उपपदं यस्य, यानक्रियायाः उपपदमस्ति आहर्तुम् इति, आहरणक्रिया. सो तस्य स्थानिनः नाम अप्रयुज्यमानस्य तुमुनः. सो द आहर्तुं, द तुमुन्नन्त आन् दट् आहरणक्रिया इस् नाट् हर्ड् नौ. फलेभ्यो याति इत्यत्र फल इत्यस्ति, याति इत्यस्ति. सो तस्य कर्मणि, सो आहरणक्रियायाः कर्म किं? फलम्, ईप्सिततमम्, आहरणक्रियया सम्बन्धम् इष्टतमं फलम्. अतः ईप्सिततमत्वात् कर्मत्वं फलानाम् अस्ति. सो तुमुन्नन्तस्य कर्मणः अर्थात् फलानां फलेभ्यः चतुर्थी विभक्तिः भवति. फलेभ्यो याति इति उदाहरणं. फलानि आहर्तुं याति इत्यर्थः. सो फलान्याहर्तुम् इति. इह phanaharana kriya artha yana kriya. So you have kriya artha kriya. So the yana kriya, the action of going, is for the purpose of bringing fruits. Phanaharana kriya artha yana kriya. Tadvasake upapade. So the upapada of that is ahartum iti adhyahara labhya tumunnantartha aharana kriyam prati. So there is ahartum which is not directly heard, it is through adhyahara. We assume that it is there. So ahartum iti adhyahara labhya tumunnantartha aharana kriyam prati phalanam karmatvat chaturthi dvitiya apavadaha. So it is as an apavada to dvitiya. Nacha tadarthya chaturthya gatarthata shankya. He says, tadarthya chaturthi bhavati kila kimartham idam sutram iti prashnaha. So he says, no, tadarthya chaturthi na bhavati kimartham. Nacha tadarthya chaturthya gatarthata shankya nahi yana kriya phalartha. So he says, the yana kriya is not directly for fruits, it is for bringing fruits. So, phalakarmaka aharana kriyartha yana kriya iti bodhaha. The shabda bodha is that way. He goes for bringing fruits. Okay. So, that that is very important, because phalebhyo yati, if you just say tadartha, he might be going for eating fruits. No, he is going phalani ahartum yati, for bringing fruits. So, the tadartha, the purpose of going is not just fruits, it's not food directly, it is bringing fruits. There is a kriya which is implied there in the shabda bodha. That is how we understand the sentence, phalebhyo yati iti. Ataha tatra tadarthya chaturthya na bhavati. Okay? So, nata tadarthya chaturthya gatarthata shankya, nahi yana kriya phalartha, kintu phalakarmaka aharana kriyarthaiva ataha na phalebhyaha tadarthya chaturthi prasaktihi evamcha phalakarmaka aharana kriyartha yana kriya iti bodhaha. Okay, so that is how we understand the sutra. There is one more example he gives. Namaskurmo nrisimhaya. Just see, this is a mangala of some shastra grantha. I don't remember which one. So, namaskurmo nrisimhaya ityasti. Atra katham chaturthi iti prashnaha. So, kaha namas ityasti. Namas shabda yogena chaturthi vibhakti hi bhavitum arhati. Kintu, there is also a kriya there. Kurmaha. Iti. So, there is a kriya yoga. So, there is a karaka vibhakti, which is a karma, which is also interfering. So, upapada vibhakte hai karaka vibhakti baliyasi. Munitrayam namaskritya ityasti. So, there is karaka vibhakti which is overruling the upapada vibhakti. So how do you have the chaturthi here? It's a prashna. Namaskurmo nrisimhaya. So tada uchyate nrisimham anukulayitum namaskurmaha iti bodhaha. Okay. So anukulayitum iti tumun asti. Namaskara kriya asti anukulana kriya. So to make him favorable. Okay, so there are two kriyas. Atra, namaskara kriya, the purpose of namaskara kriya is to make him anukula. Okay, so kriyartha kriya asti. Anukula na kriyartha namaskara kriya. So tasya upapadam punaha namaskara kriya. So sorry, anukula na namaskara kriya. Kriyartha kriya upapadam yasya tasya aprajyamanasya sthaninaha. So the tune here is not being used directly. It is through assumption, we are assuming that it is there. So, the karma of that anukulana, to make whom favorable, it is nrisimha. So, karmatvat, kriyarthopapadasya karmani sthaninaha ityanena chaturthi. Namaskurmo nrisimhaya, nrisimham anukulayitum iti. Nachatra namaskasti ityeva chaturthi siddha iti vachyam, upapada vibhaktehe karaka vibhaktar baliyasi iti dvitiya pattehe. Etat suchanarthameva idam udaharanantaram darshitam. That is why he gives the second example. Dikshita almost never gives a second example. He never gives it without a particular reason. So why he is bringing in a second example is this. That is, even though we say that upavada vibhakti hai, karaka vibhakti bali, you see, we see examples where there is chaturthi with not just with namaha but with a kriya. So in such cases, we use this sutra. So rasimham anukulayitum namaskurmaha iti bodhaha. Evam swayambhuve namaskritya ityada vapi. So there are other cases. So there is munitrayam namaskritya, there is swayambhuve namaskritya. So in one case we have dvitiya, in one case we have chaturthi. So we have justification for both. In one case it is direct karma, karmatva chaturthi. So in this case again, even though this is an upapada vibhakti, karmanaha eva chaturthi vidhiyate. So this will overrule that. Okay. So swayambhuve namaskritya ityada vapi. And anyway, here the karma is different. There, it is directly a karma of the namaskara kriya, right? Namunitrayam namaskritya ityukte. Sakshat namaskarana kriyayam karmatvam asti munitrayasya. Swayambhuve namaskritya ityatvatu. Namaskara kriyayam karmatvam na. Swayambhuvam anukulayitum namaskritya. So, anukulana kriyayam swayambhuvaha karmatvam asti. So, there is a difference in how the sentence is perceived or understood. Should be understood. He would not know the difference, I mean, unless this is there. So, okay. So, I think we'll stop here and we'll continue in the next class. Yes, always it is vivaksha. Exactly. Vivakshatah karakani bhavanti. Not just karaka, vibhakti. Whatever you take, as soon as a sentence comes into play, we have this. Okay. So, namaskara, again you have the bhavavachana. Okay. Tumarthacha bhavavachana. So, it will be chaturthi itself. Okay. Oh no, sorry. It is not bhavavachana. Sangeetha namaskara. So there, namaskara. Can you have a dvitiya? No, we cannot instinctively. We cannot have a dvitiya there. Why? Because it is not a. See, the difference is. Sarvan namas. No. Because the namaskara is not a kriya, right? So, kridabhito bhavo dravyavat prakashate. So, there is no direct kriya there. It is a dravya. That is, dravyavat prakashate. So, whatever is told by the kridanta there. So, unless it is a bhava kridanta. It is not kriya which is being told by the this directly. So, there is no karma there. Okay? Namashabda yoga chaturthi upavada chaturthi eva bhavati. Because the namaskara, even though it is derived from the kridhatu, that is why he says namaskurmaha or namaskritya, where again ktva is in the, it is a bhava, okay, bhava vachana. So unless it is a bhava kridanta, the kridanta will not directly indicate a kriya. So there is no kriya janakatva and there is no karmatva. Ataha chaturthya dvitiya na bhavati, bhavitum narhati. Karmani dvitiya will not apply because it is not kriya janaka and not a karaka. Because it is not a kriya at all when you are saying namaskara. Okay. Any other questions? ఏనాక్షరసమాం నాయమధిగమ్య మహేశ్వరాత్ సత్సం వ్యాకరణం ప్రోక్తం తస్మై పాణినయే నమః మునిత్రయం నమస్కృత్య తదుక్తీశ్వరిభావ్య చ వ్యాకరణ సిద్ధాంత కౌముదీయం విరచ్యతే. We'll see the next part of this tomorrow.